इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। प्रशासनेन अद्य डीजल विमानयान टर्बाइन ईंधनयोः एटीएफ इत्यस्य उपरि निर्यात शुल्कम् आरोपितम्। प्रधानमन्त्रिणा नरेन्द्र मोदिना अद्य सायंकाले आभासीय माध्यमेन सर्वेषां राज्यानां मुख्यमन्त्रिभिः सह संवादं क्रियते। रक्षामन्त्रालयेन अद्य तुंगुस्का वायुरक्षा प्रक्षेपण व्यवस्थायाः तथा P-8I दीर्घ परिधि समुद्रीय निरीक्षण विमानस्य कृते 58+800 कोटि रूप्यकाणां मूल्यस्य अनुबन्धेषु हस्ताक्षराणि कृतानि। राष्ट्रिय स्वतंत्र पार्टी इति दलस्य बालेन्द्र शाह अद्य नेपालस्य प्रधानमन्त्री रूपेण शपथ ग्रहणं स्वीकृतवान्। अपि च अप्रैल मासस्य 6 दिनांक पर्यन्तं ईरानस्य ऊर्जा आधारित संरचनायाः उपरि आक्रमण विरामस्य विषये चिन्तासु गल्फ कोऑपरेशन काउंसिल इति संस्था अमेरिका ईरान देशयोः मध्ये वार्तायां भूमिकाम् इच्छति। अथ वार्ताः विस्तरेण। प्रशासनेन अद्य डीजल विमानयान टर्बाइन ईंधनयोः एटीएफ इत्यस्य उपरि निर्यात शुल्कम् आरोपितम्। पेट्रोल डीजल इत्येतयोः उपरि आन्तरिक शुल्कं च न्यूनीकृतम्, येन पर्याप्त उपलब्धता सुनिश्चितं भवेत् तथा च पश्चिम एशिया संकटेन वर्धमानात् वैश्विक तैल मूल्यात् उपभोक्तृणां रक्षणं भवेत्। पश्चिम एशियायाः वर्तमान विकासस्य विषये अन्तामन्त्रालयीयं विवरणं सम्बोधयन् केन्द्रीय अप्रत्यक्ष कर सीमा शुल्क मण्डलस्य अध्यक्षः विवेक चतुर्वेदी इत्येषः अवदत् यत् यदा अन्ताराष्ट्रिय मूल्यानि तीव्ररूपेण वर्धितानि सन्ति तदा निर्यातं निरुत्साहनाय अस्य कार्यस्योद्देश्यं वर्तते, येन शोधकानां कृते विदेशेषु ईंधनं विक्रयणार्थं प्रोत्साहनं कल्प्यते। डीजल ईंधनयोः निर्यातशुल्कं 25 रूप्यकाणि, एटीएफ ईंधनस्य निर्यातशुल्कं 39 रूप्यकाणि च निर्धारितानि। पेट्रोलियम प्राकृतिक गैस मंत्रालयस्य संयुक्त सचिवः सुजाता शर्मा इत्येषा उक्तवती यत् भारते वर्तमानकाले पर्याप्तानि अशोधितानि तैलानि सन्ति, अग्रिममासद्वयोः आपूर्तिः सुरक्षिता अस्ति तथा च एलपीजी तथा पीएनजी इत्येतयोः उपलब्धतापि अस्ति। सा अग्रे अवोचत् यत् शोधनागाराणि पूर्णक्षमतया अधिकक्षमतया वा कार्यं कुर्वन्ति, देशीय एलपीजी उत्पादनं प्रायः 40% यावत् वर्धितम् अस्ति।
हमारी रिफाइनरीज 100% या उससे भी ज्यादा कैपेसिटी पर ऑपरेट कर रही हैं और डोमेस्टिक प्रोडक्शन ऑफ एलपीजी हैज इंक्रीज्ड बाय ऑलमोस्ट 40%। एलपीजी वी हैव अ ह्यूज इंपोर्ट डिपेंडेंसी और इसका 90% जो आ रहा था वो स्ट्रेट ऑफ हॉर्मूज से आ रहा था, इसलिए भारत सरकार ने निर्णय लिया कि डोमेस्टिक कंज्यूमर्स को प्रायोरिटाइज किया जाएगा।
केन्द्रीय वित्त मन्त्री निर्मला सीतारामनः अवदत् यत् पेट्रोल डीजल तथा एविएशन टर्बाइन फ्यूल एटीएफ इत्येतयोः मूल्येषु वृद्धिः न भवेत् इति सर्वकारः सुनिश्चितं करोति। नवदेहलीनगरे प्रसारमाध्यमैः सह वार्तालापं कुर्वन्ती श्रीमती सीतारामनः अवदत् यत् पश्चिम एशियायाः वर्तमानसङ्घर्षस्थितिं दृष्ट्वा प्रधानमन्त्रिणा नरेन्द्रमोदिना एकम् उपवेशनम् आयोजितम्। प्रधानमन्त्री नरेन्द्र मोदी आभासीय माध्यमेन सर्वेषां राज्यानां मुख्यमन्त्रिभिः सह उपवेशनं कुर्वन् अस्ति, यस्मिन् पश्चिम एशिया द्वन्द्वस्य सन्दर्भे तेषां सज्जता योजनाः च समीक्षितुं शक्यन्ते। अस्य संवादस्य मुख्योद्देश्यं टीम इण्डिया इति भावेन संयुक्तरूपेण कार्यं सुनिश्चितं करणीयमस्ति, परञ्च येषु राज्येषु आचारसंहिता प्रवर्तितास्ति तेषां मुख्यमन्त्रिणः अस्यां सभायां सहभागिनः नैव भविष्यन्ति। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। रक्षामन्त्रालयेन अद्य तुंगुष्का वायु रक्षा प्रक्षेपण व्यवस्थायाः तथा P8I दीर्घ परिधि समुद्रीय निरीक्षण विमानस्य कृते 58+800 कोटि रूप्यकाणां मूल्यस्य अनुबन्धेषु हस्ताक्षराणि कृतानि। मन्त्रालयेन उक्तं यत् 45+400 कोटि रूप्यकाणां मूल्यस्य तुंगुस्का वायु रक्षा प्रक्षेपण यंत्र व्यवस्थायाः क्रयणार्थं अनुबन्धः रूसदेशस्य JSC रोसोबोरोन एक्सपोर्ट इत्यनेन सह रक्षा सचिवस्य राजेश कुमार सिंहस्य उपस्थितौ हस्ताक्षरितः। एताः अत्याधुनिक प्रक्षेपण्यः विमान ड्रोन क्रूज प्रक्षेपण इत्यादीनां ड्रोन यन्त्राणां प्रतिकारार्थं देशस्य बहुस्तरीय वायुरक्षा क्षमताम् अधिकं सुदृढं करिष्यन्ति। मन्त्रालयेन उक्तं यत् एषा सन्धिः भारत रूस सामरिक रक्षा सहभागित्वम् अधिकं सुदृढं करिष्यति। राष्ट्रिय स्वतंत्र पार्टीति दलस्य संसदीय दलस्य नेता बालेन्द्र शाह अद्य नेपालस्य लोकतांत्रिक रूपेण निर्वाचितः प्रधानमंत्री रूपेण शपथ ग्रहणं स्वीकृतवान्। देशस्य कनिष्ठतमः प्रधानमंत्री जातः 35 वर्षीयः RSP इति दलस्य नेता शीतल निवास नगरस्य राष्ट्रपति कार्यालये राष्ट्रपतिना रामचंद्र पौडेल इत्यनेन द्वारा पदस्य गोपनीयतायाः च शपथं स्वीकृतवान्। इतः प्राक् सद्यैव समाप्ते संसदीय निर्वाचने बहुमतेन व्यापकं विजयं प्राप्य RSP दलेन श्रीशाहं संसदीय दलस्य नेतृत्वेन निर्वाचितं येन सः देशस्य 47वां प्रधानमन्त्री अभवत्। भ्रष्टाचारस्य परिवारवादस्य सामाजिक अन्तर्जाल प्रतिबन्धस्य च विरुद्धं यूनां नेतृत्वे जैनजी इत्यस्य विरोधस्य अनन्तरं पूर्व प्रधानमन्त्रिणः केपी शर्मा ओली वर्यस्य नेतृत्वे संयुक्त सर्वकारः गतवर्षे सितम्बर मासे निष्कासितः। ततः परं श्रीशाहः प्रथमः लोकतांत्रिक रूपेण निर्वाचितः प्रधानमन्त्री अस्ति, यो हि शपथं स्वीकृतवान्। अप्रैल मासस्य 6 पर्यन्तं ईरानस्य ऊर्जा आधारित संरचनायाः उपरि आक्रमणस्य विरामस्य विषये चिन्तासु गल्फ को ऑपरेशन काउंसिल इति संस्था अमेरिका ईरान देशयोः मध्ये वार्तायां भूमिकाम् इच्छति। भारतस्य मुख्य न्यायाधीशः डॉ सूर्यकान्तः अद्य लद्दाख केन्द्रशासित प्रदेशस्य चतुर्दिवसीय यात्रायां लेहनगरं सम्प्राप्तवान्। लेहनगरस्य खुशुक बकुला रिनपोचे विमानस्थानके लद्दाखी पारम्परिकरीत्या भव्यं स्वागतमभवत्। लद्दाखयात्रायाः आरम्भे सः गार्ड ऑफ ऑनर अपि स्वीकृतवान्। भ्रमणकाले श्रीकान्तः लेह कारगिल नगरयोः नवनिर्मितानां मण्डल न्यायभवनानाम् उद्घाटनं करिष्यति, येन केन्द्रशासित प्रदेशे न्यायिक आधारभूत संरचनायाः महती वृद्धिः भविष्यति। सर्वकारः अवदत् यत् दुर्दशायां स्थितानां महिलानां सहाय्यार्थं सम्पूर्णे देशे 26,900 वन स्टॉप केन्द्राणि कार्यरतानि सन्ति। अद्य लोकसभायाम् एकस्य प्रश्नस्य प्रत्युत्तरे महिला बाल विकास राज्यमन्त्री सावित्री ठाकुरः उक्तवती यत् एतेषु केन्द्रेषु 13,00,000 अधिकाः महिलाः सहायिकाः सन्ति। मन्त्रिणा उक्तं यत् सर्वकारः महिलानां सुरक्षां सुनिश्चितं कर्तुं सर्वोच्च प्राथमिकतां प्रददाति। OSC इत्येतेषु विविधाः समन्वित सेवाः प्रदीयन्ते, यथा चिकित्सा साहाय्यं, विविध साहाय्यं, अस्थायी आवासः, आरक्षक साहाय्यं, मनोसामाजिक परामर्शश्च। राज्यसभायां 26,000 वित्त विधेयकम् आदाय विचारार्थं लोकसभायै प्रत्यावर्तनार्थं च स्वीकृतम्। एतद् विधेयकं 26,000 27,000 वित्तवर्षस्य कृते केन्द्रसर्वकारस्य वित्तीय प्रस्तावान् कार्यान्वयितुं प्रयुञ्जते इति वार्ताः।